सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः अम्भस्य पारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो महीयान् शुक्रेण ज्योतिरुंषि समनुप्रविष्टः प्रजापतिश्चरति गर्भे अन्तः यस्मिन्नितदुंसं च विचैति सर्वं यस्मिन् देव अधिविश्वे निषेदुः तदेव भूतं तदुभं यव इदं तदक्षरे परमे योवन् येनावृतं खञ्ज दिवं महीं च येनादित्यस्तपति तेजसा भ्राजसा च यमन्तः समुद्रे कवजो वयन्ति यदक्षरे परमे प्रजाः यतः प्रसूता जगतः प्रसूतीतो येन जीवान्यच सद्यभूम्या यदोषधीभिः पुरुषान् पशुभिश्च विवेश भूतादि चराचराणि अतः परन्नान्यदनीजसगुहि परा परञ्जन्महतो महान्तम् यदेकमं व्यक्तमनन्तरूपं विश्वं पुराणन्तमसः परस्तात् तदेवर्तन्ततु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम् इष्टापूर्तं बहुधा जातं जाजमानं विश्वं बिभर्ति भुवनस्य नाभिः तदेवाग्निस्तद्वाजुस्तत्सूर्यस्तदु चन्द्रमाः तदेव शुक्रममृतं तद्ब्रह्म तदापः स प्रजापतिः सर्वे निवेशा जज्ञिरे विद्युतः पुरुषा दधि कला मुहूर्ताष्काष्ठाश्चाहोरात्राश्च सर्वशः अर्धमासा मासा ऋतवः संवत्सरश्च कल्पन्ताम् स आपः प्रदुघे उभे इमे अन्तरिक्षमथोऽसुवः नैनमूर्ध्वन्न तिर्यञ्जन्न मध्ये परिजग्रभत् न तस्येषे कश्चन तस्य नाम महद्यशः न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् हृदा मनीषा मनसाभिक्लुप्तो य एनं विदुरमृतास्ते भवन्ति अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ एष हि देवः प्रदिशोऽनु सर्वाः पूर्वो हि जातः स उगर्भे अन्तः स विजायमानः स जनिष्यमानः प्रत्यङ्मुखास्तिष्ठति विश्वतो मुखः विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो हस्त उत विश्वतस्मात् सम्बाहुभ्यां नमति सम्पतत्रैर्या वा पृथिवी जनयन् देव एतः वेनस्तत्पश्यन् विश्वा भुवनानि विद्वान् यत्र विश्वं भवत्येकनीणम् यस्मिन्निदगुंसं च विचैकगुंस ओतः प्रोतश्च विभुः प्रजातु प्रतद्वोचे अमृतं नु विद्वान् गन्धर्वो नामनिहितं गुहासु त्रीणि पदानि हि का गुहासु यस्तद्वेद सवितुः पिता सते स नो बन्धुर्जनिता सविधाता धामानि वेद भुवनानि विश्वा यत्र देवा अमृतमानशानास्थिति देधामान्यभ्यैरजन्त परिद्यावा पृथिवीजन्ति सद्यः परिलोकान् परिदिशः परिशुभः हृतस्य तन्तुम् विततम् विचृत्य तदपश्यत्तदभवत् प्रजासु परीत्य लोकान् परीत्य भूतानि परीत्य सर्वाः प्रदिशो दिशश्च प्रजापतिः प्रथमज ऋतस्यात्मनात्मानमभिसम्बभूव सदसस्पतिमद्भुतम् प्रियमिन्द्रस्य काम्यम् स निम् मेधामजाशिषम् उद्दीप्यस्वजातवेदोपघ्नम् निरृतिम् मम पशोभिश्च बह्यभावः जीवनम् च दिशो दिश मानो हि गुंसीज्जातवेदो गामश्वम् पुरुषम् जगत् अभिभ्रदग्नागहि श्रिजा मा परिपातज पुरुषस्य विद्मसहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दिः प्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् वज्रनखाय विद्महे तीक्ष्णदग्निष्ट्राय धीमहि तन्नो नारसिगुह्मः प्रचोदयात् भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्यः प्रचोदयात् वैश्वानराय विद्महे लालीलाय धीमहि तन्नो अग्निः प्रचोदयात् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् सहस्रपरमा देवी शतमूला शताङ्कुरा सर्वगम् हरतु मे पापम् दोर्वादुस्वप्रणाशने काण्डात् काण्डात् प्ररोहन्ति परुषः परुषः परि देवानो दूर्वे प्रतनु सहस्रेण शतेन च या शतेन प्रतनोषि सहस्रेण विदोहसि तस्यास्ते देवेष्टके विधे महविषावयम् अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा शिरसा धारयिष्यामि रक्षस्व माम् पदे पदे भूमिर्धेनुर्धरणी लोकधारिणी उद्धृता शिवराहेण कृष्णेन शतबाहुना मृत्तिके हनवे पापय्यन्मया दुष्कृतम् कृतम् मृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता मृत्तिके देहि मे पुष्टिं पति सर्वं प्रतिष्ठितं मृत्तिके प्रतिष्ठिते सर्वं तन्मे निन्दुत मृत्तिके तगाहतेन पापेन गच्छामि परमां गतिम् यत इन्द्र भजामहे ततो नो अभजं कृधि मघवं छद्धितवतन्न ऊतजे विद्विषो विमृधो जहि स्वस्तिदा विशस्पतिर्वृत्रः विमृधो वशी वृषेन्द्रः पुर एतु न स्वस्तिदा अभजं करः स्वस्ति न इन्द्रो वृद्धश्रवा स्वस्ति नः पूजा विप्रवेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टदेवि स्वस्ति नो बृहस्पतिर्दधातु आपान्तमन्युस्त्रिपलप्रभर्माधुनिःशिमीवाञ्छरुमागम्रजीषि सोमो विश्वान्यतसावदानिनार्वागिन्द्रम् प्रतिमानादिदेभुः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विसीमतः सुरुचो वेद आवह स बुद्धिरा उपमा अस्य विष्ठा सतश्च जो निवसतश्च विवः स्यो न पृथिविभवा नृक्षरा निवेशनी यच्छा नः शर्म सप्रथाः गन्धद्वारान् दुराधर्षान् नित्यपुष्टान् कदीशिने ईश्वरीकम् सर्वभूतानान्तामिहोपह्वये श्रियम् श्रीर्मे भजतु अलक्ष्मीर्मे नश्यतु विष्णुमुखा वै देवाश्छन्दोभिरिवाल्लोकाननपजय्यमभ्यजयन् महागम् इन्द्रो वज्रबाहुः षोडशी शर्म गच्छतु स्वस्ति नो भगवा करोतु हन्तु पाप्मानयोऽस्मान् वेष्टि सोमानज्ञस्मरणम् कृणु हि ब्रह्मणस्पते रक्षीवन्तय्य औषिजम् शरीरैयज्ञशबलङ्कुसीदन्तस्मिन् सीदतु जोऽस्मान् वेष्टि चरणम् पवित्रम् विततम् पुराणय्येन पूतस्तरति दुष्कृतानि तेन पवित्रेण शुद्धेन पूता अधिपात्मानवरातिन्दरेम सजोषा इन्द्रसगणो वरुद्भिः सोमम् पिपवृत्तहंशोरविद्वान् जहि शत्रुगुम्रपमृधोनुदस्वाथा भजम् कृणुहि विश्वतो नः सुमित्रा न आप ओषधजः सन्तु दुर्मित्रास्तस्मै भोजा दुर्योऽस्मान् वेत्तिजन्त भजन् विश्वः आपो हिष्ठामजो भुवस्तान ऊर्जे दधातन महेरणागचक्षसे यो वः शिवतमोरसस्तस्य भाजयते हनः उशतिव मातरः तस्मा अरङ्गमामभोजस्य क्षजा जिन्वथा आपो जनयथा च नः